अहम् अहं वदामि, भवन्तः अनुवदन्तु. अनुवदन्तु इत्युक्ते रिपीट्.
नमस्कारं भगिनि परमेश्वरन्.
नमस्कारः महोदय. भगिनी, अहं प्रथमं वदामि, अनन्तरम् अनुवदन्तु. अस्तु. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यङ्करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै, ॐ शान्ति शान्ति शान्तिः. अस्तु, सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति भूतकालविषये एकं कथा.
नमस्कारं भगिनि, श्रीनिवासन्.
नमस्कारः महोदय, स्वागतम्. सो एतां कथां वदामः, अनन्तरं भविष्यत् कालरूपं प्रति गच्छामः. भविष्यत् कालरूपम् अस्तु. इदानीम् अत्र सुधीरः इति पुल्लिङ्गपदम् अस्ति. सुधा इति अस्ति चेत् कथं भवति इति वयं परिवर्तनं कुर्मः. अनन्तरं वानरः इति अस्ति, अत्र वानरी इति अस्ति चेत् कथं भवति इति पश्यामः. अपि च विकल्पेन इत्युक्ते बै चाय्स् विकल्पेन सुधीरः इति पदस्य स्थाने अहम् इति अस्ति चेत् कथं वदामः इति अपि पश्यामः. अवगतं वा?
अवगतम्.
अवगतम्. उत्तमम्. अस्तु, सागरि भगिनि, अत्र सुधीरः इति स्थाने सुधा इति अस्ति चेत् कथं भवति? वाक्यद्वयं वदतु. टू सेण्टेन्सेस् यु टाक्. अत्र कश्चित् बालकः अस्ति, तस्य नाम सुधीरः. एकदा सुधीरः नगरं गच्छति. त्रीणि वाक्यानि. सो इन्स्टेड् आफ् कश्चित् इट् विल् बि बिकास् इट् इस् बालकः खलु.
Instead of kaha, it will be ka.
Ka. It will be ka. Asta.
Kaschit remains the same?
No, kaschit will become kachit.
Kachit. Yes.
Kachit. Instead of balakaha, it will be?
Balika.
Balika. Kachit.
Balika. Kachit. काश्चित् बालिका अस्ति.
सो द अस्ति विल् बिकम् द भूतकाल खलु. काचित्
आसीत्.
उत्तम. काचित् बालिका आसीत्.
तस्य नाम सुधा.
नारायण महोदय वदतु. श्रीनिवास महोदय,
एकप्रश्नः. महेशः.
महेश वा? अस्तु.
सारी भगिनी, यु आर् कालिङ्ग् मी, ऐ वास् इन् म्यूट्.
कश्चिद् पद इति पुल्लिङ्गपद अस्ति वा?
द वे वि कम् टु कश्चिद्, एकनिमिषम् अहं दर्शयामि. सो अत्र चित् अपि च चन इति पदद्वयम् अस्ति. सो सो इफ् यु वाण्ट् टु से संथिङ्ग् वि आर् नाट् श्योर् like we are saying ekah balakah asti prashnah udayati kah balakah aha aham vadami ka kachit balakah some boy so the prashnah is kah balakah kalo kah so with the kah we add chit so because of the sandhi it will become kaschit we can also say kaschana they both mean the same thing kaschana kaachana like that so if it is balika I'm saying balika gachati ka balika which girl ka balika ka balika kaachit balika kaachana balika and supposing I'm saying give me a book pustakam dadatu and what is the prashna you will ask me
kim pustakam dadatu
kim pustakam kim so I will say kim chit but because of the makara it will become kim chit kinchit it will become kinchit so that is how we get this one
am bhagini dhanyavad bhagini
astu so atra kachit balika aset padatu bhagini sagari bhagini
tasya nama sudha
so atra tasya iti padam pullingam va strilingam va
pullingam
तस्याः नाम सुधा उत्तमं भगिनि
एकदा सुधा नगरं गतवती
उत्तमं नगरं गतवती अस्तु गोपिका भगिनि
शिरस्त्राणि क्रीणितवती
क्रीतवती
तेषां विक्रयणार्थं
ग्रामं गतवती उत्तमं शारदा भगिनी मार्गे
अरण्यम् आसीत् सुधा श्रान्ता अभवत्
उत्तमं श्रान्ता अभवत् उत्तमं भगिनि महेश महोदय
आं भगिनि सा वृक्षस्य अधः उपविशति
उपविष्टवती no bagini let him answer okay whoever is answering will give them asto upavishtavati uttama upavishtavati
shirastrapetika parshve sthapitavati
satit etatapi karotu
tatra eva nidram karoti becomes कृतवती
उत्तम कृतवती अस्तु बीना भगिनी
तत्र कश्चन
पुनः वदतु भगिनि तत्र काश्चन उत्तमं काश्चन
वानर्यः आसन्
वानर्यः आसन् उत्तमम् अस्तु
एका वानरी सुतायाः समीपम् आगतवती
उत्तमं भगिनि उमारेड्डि भगिनि
भगिनि सः पेटिका
भगिनी क्वश्चिन्
वदतु महोदय
Here we are making even a vanara into strilingam. That's what we want to do. We want to convert everything into strilingam, including the vanara.
Abhyasartham eva mahodaya. Abhyasartham eva. Astu. Bhagini. Vadatu bhagini.
Sa petikam.
Eka nimsham. Uma ready bhagini. Eka nimsham. Samana.
Samipam doesn't, it also changes at times, no?
No. Samipam is only Samipam eva. Samipam.
Samipe sometimes.
Yeah, good question. So, atra, where is Samip?
Down.
Samipam is here, but Samipe is not here. Astu, so when you say Parshve,
Yeah.
Parshve is also Samipe eva. Samana artha padam.
Okay.
Samipe. So, very good question, Bhagini. So, atra, kutra sthapayati is the question. Kutra.
Okay.
So, when we say kutra, uttaram saptami vibhaktau asti kalo, Samipe. So, atra kutra agachati. So, atra dvitiya vibhakti rupam. So, atah samipam. Samipe and samipam. Uttama prashnaha bhagini. Astu, umareti bhagini.
Sa petika.
Bahu dvanihi agachati.
Dustavanti.
Vati eva. Eka nimsha bhagini, I'm going to mute everybody. It's very noisy. Uma bhagini, unmute karot. Vadatu. Sa petikam.
Drushtavati.
Uttama, drushtavati.
Drushtavati. Udhya.
Udghatitavati.
Udghatitavati. उद्घाटितवती एकं शिरस्त्राणं
शिरस्त्रं
गृह्णाति
गृहीतवती अस्तु रम्या भगिनि शिरसि रम्या भगिनि अनन्तरम् उमाकृष्णन् भगिनि
उमाकृष्णन्
प्रथमं रम्या भगिनि
शिरसि धारयति
शिरसि धारितवती
पुनः वृक्षस्य उपरि गच्छति पुनः वृक्षस्य उपरि गतवती उपविशति उद्दिष्टवती उपविष्टवती सारी
उपविष्टवती
उपविष्टवती
अस्तु उमाकृष्णन् भगिनी
अन्ये अपि
वानर्यः
एतत् दृष्टवत्यः
सो अत्र अन्ये विल् चेञ्ज् टु अन्याः
ओके
अन्याः अपि वानर्यः एतत्
वत्यः ताः अपि शिरस्त्रां
इष्टवत्यः उत्तमम्
अतः आगतवत्यः शिरस्त्राणि इस् इट् धृतवत् दारित्रवत् दारित्रवत्यः वृक्षे उपविष्टवत्यः
उत्तमं भगिनि उषा भगिनि
वाट् वास् देट् वन् शी सेड् धारयत्यः
धारितवत्यः
धारितवत्यः ओके to do the next paragraph. Sudha jagritah abhavat.
So jagritah is pullinga kalo jagritah
jagritah
jagrita eva
jagrita abhavat
abhavat
puratah drishtavati.
Drishtavati. So all these words are avyayam. Puratah, api, all that. Adah,
atah. So not anya, right? Not anya.
No.
Yeah.
Puratah, drishtavati.
Ekam api shirastram nasit.
Nasit.
Vanaran.
So atra it will become vanarihi. Bahuvachanam or strilinga. Vanarihi.
And it's a karma padam, is it? Vanarihi. Vanarim it should be, right?
Vanarihi.
It won't become dhitiya vipakti?
It is dhitiya bhagini. Vanarihi is dhitiya bahuvachana rupam. Vanarihi.
Oh, I thought it would be vanarim. Okay.
No. Vanarihi drishtavati. Yeah, that's a good question. Vanarim is ekavachanam. Vanarim.
Oh, I see. Okay.
But this here vanaran, bahuvachanam.
Bahuvachanam, okay. So vanarihi drishtavati.
Drishtavati. Astu. Astu bhagini. Dhanyavada. Savita bhagini?
Yes, bhagini.
Shirastrani.
Shirastrani tatra asi.
Asi. Something else, Bhagini. Asit is ekavachana.
Asan.
Asan, uttamam. Asan.
Shirastrani tatra asan. Sa dandam darshayate.
Darshita.
Darshitavati. Darshitavati. Sa dandam darshitavati. Vanari. Vrikshashaka. Vanari. Vanarim.
No. Vanaryah, kalo bahuvachanam.
Okay. Vanaryah, vrikshashaka, vrikshashakaha, darshavantaha,
darshitavatya,
darshitavatya, okay, darshitavatyah,
darshitavatyah,
sudha, शीलाखण्डं क्षिपत्यति क्षिपत्यति क्षिप्यति
क्षिप्त
क्षिप्तवति
क्षिप्तवति अस्तु
क्षिप्तवति वानरी फलानि वानर्यः फलानि क्षिप्तवन्त्यः
वत्यः भगिनी वत्यः
क्षिप्तवत्यः
स्त्रीलिङ्गे नकारः न आगच्छति क्षिप्तवन्तः पुल्लिङ्गे क्षिप्तवत्यः स्त्रीलिङ्गे
यकारः
क्षिप्तवत्यः उत्तमं भगिनि धन्यवादः परमेश्वर महोदय सुधा उपायम् श्रीनिवास महोदय
आम् भगिनि सुधा
सो यु विल् डू द नेक्स्ट् थिङ्ग् परमेश्वर महोदय सुधा
सुधा उपायं करोति कुर्वन्ति नो कृतवती सुधा उपायं कृतवती वानरी
वानर बहुवचनं
वानर्यः अनुकरणशीलाः इति स जानाति जानीतवती
ज्ञातवती
ओके ज्ञातवती स्वकीयं शिरश्रम
भूमौ
क्षिप्तवती
क्षिप्तवती. धन्यवादः महोदय, धन्यवादः. उत्तमं महोदय, धन्यवादः. परमेश्वर महोदय,
वानराः so it the plural for vanarih it should be no
no vanar vanaryah bhagini van
sorry vanaryah and then it should be the nyatavatyah it should be right
yeah no 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 saha nyatavan kalo
oh okay
ah, yeah.
Ah. But the first one should be vanari the plural is
vanaryah
vanaryah okay
is it prathama vibhakti bahuvachanam
vanaryah yeah am
vanaryah and but what I did was vanarihi that was the dvitiya dvitiya vibhakti bahuvachanam
yeah
okay. So that was the difference. I also got confused. I had the same question Pagari had.
Ask the bhagini parameshwar
sarve api vanaryah tirasrani
महोदय एकनिमिष सर्वे इति पुल्लिङ्गपदं खलु सर्वे
सर्वाः सर्वाः अपि वानर्याः वानर्यः शिरस्त्राणि क्षिपयति क्षिप्रयन्ति
क्षिप्तवत्यः
क्षिप्तवत्यः सुधा सर्वाणि
सङ्गृहीतवती
शीघ्रम् अन्यत्र गतवती
उत्तमम् So you're getting a handle on these things, hello?
Yes.
Yeah, so in the beginning it's very difficult. Okay. All right, so can everybody mute please, okay? We will go to a new topic today, Astu.
Bhagini, sangrahitavati meaning,
he collected it.
Collected, thank you.
Astu. So atra,
Bhagini?
वदतु भगिनि
उपायं स्वकीयं देर् आल्सो अव्ययम्
नो उपायं उपायं बै इट्सेल्फ् इस् अ वर्ड् इस् नाट् अन् अव्ययं भगिनि उपायम् उपायस्य लैक् देट् सो वि केन् सो स्वकीयं is not because it is shirastram iti napumsakalinga padam atah svakiyam udaharanartha shatika iti asi svakiya shatika iti agacchati svakiyah chashakah okay so it is not an object astu bagini vadatu
sarve bahuvachanam
सर्वः सर्वौ सर्वे सर्वः सर्वे सर्वा सर्वा सर्वाः
स्त्रीलिङ्गं वेरे उण्टदा मेडम्
आम् आम् स्त्रीलिङ्गे आह इति आगच्छति सर्वाः सो अत्र वेन् वि हेव् स्त्रीलिङ्गपदानि So, उदाहरणार्थं वानरः बिकेम् वानरान् द्वितीया विभक्ति बहुवचनं स्त्रीलिङ्गे शाकाः एव अहं दर्शयामि अत्र अत्र बालकः बालकं पश्यामि बालकान् पश्यामि बहुवचनं बालिकां पश्यामि बालिकाः एव एवमेव वानरीं पश्यामि वानरीः एव, वानरीः पश्यामि.
आं भगिनि.
भगिनि
सर्वे पर्वे पद इति सप्तमी विभक्तिरूपे अस्ति खलु?
न, प्रथमाविभक्ति.
सर्वे
सर्वे सर्वः सर्वः
भगिनि वानरः अनुकरणशीला.
एकनिमिषं भगिनि, एकनिमिषं भगिनि. सर्वे सर्वे आगच्छन्तु, एव्रिबडि कम्. सर्वे
सर्वः सर्वौ
सर्वे सर्वः सर्वौ सर्वे सर्वः सर्वौ सर्वे लैक् शान्ति मन्त्रे अस्ति खलु, सर्वे भवन्तु सुखिनः. अस्तु अस्तु भगिनि.
आनरः अनुकरणशीला इति स जानाति. मीनिङ्ग् भगिनि
उदाहरणार्थं दण्डं दर्शयति, वृक्षशाखाः दर्शयति, शिलाखण्डं क्षिपति, फला वानराः दे थ्रु अ फ्रूट्. सो वाट् एवर् हि डस् दे विल् दे विल् कापि दे इमिटेट्.
Bhagini, it was echoing. I couldn't hear you. What was
anukaranashilah itikte, they will imitate us.
Imitate. Dhanyavada.
Yeah, they will copy whatever we do. Imitate us. Astu. So, agrima paataha.
Bhagini, sorry, can I, a quick question. In that story, if I was doing aham instead of sutha or sutir, the conjugation would be the same as sutta because I'm female. Would that be right?
Exactly correct.
Okay, thank you.
Bhagini, in that word, anukarana shila,
Bhagini,
is that shila means nature?
No, it means why that they... I don't understand your question.
Why is it anukarana shila? Anukarana is following.
Okay. Shila means the conduct.
Conduct, yeah. So, natural conduct, I suppose.
Yeah.
Okay. Bhagini, the extension of the question asked by somebody just now, now currently I am telling everything on the Prathama Purusha basis. If I am saying Aham, I am changing everything to Uttama Purusha. Won't the whole, this change, Karoti, Karomi, those kind of things?
No, because for the Bhuta Kala, there is no Purusha Bhedaha. For example, you will start the story saying, so instead of saying,
Aham Asam. Balakaha Asan. Aham Asam. It is not same, no?
Oh, yeah. Only for Asti. Asti Mahodaya. Because Asti, it is not a proper Bhutakala. This is a proper Bhutakala. Like
all the other verbs, nothing will change.
It will change. For example, the Bhavati and Asti, it is proper Bhutakala. So there will be Purusha Bhedaha. But for example... एकदा अहं नगरं गतवान्, सुधीरः गतवान्, अहं नगरं गतवान्.
तस्य नाम मम नाम श्रीनिवासः.
मम नाम श्रीनिवासः.
एकदा अहं नगरं गतवान्.
शिरस्त्राणि क्रीतवान्, ग्रामं गतवान्. So,
sorry for backing.
No. It's good. For clarity. Bina Bhagini, for you also, Dhanyavadaha. So she will say, Ekada Aham Nagaram Gatavati, Shirastrani Kritavati, Vikrayanatam Gatavati. So this will be Asam.
The Asti will change, rest all will be the same thing exactly.
Only the Asti and Bhavati also will change. भवति. अहं श्रान्ता अभवम्. अस्तु, एनी अदर् क्वश्चन्
भगिनी? सो भवती सो अभवत् इस् इट् द सेम् फार् मास्कुलिन् अण्ड् फेमिनिन्?
आम् अभवत्.
ओके, नौ यु मेन्शन् सम्थिङ्ग् एल्स् अभ सम्थिङ्ग् ऐ एम् सोरि
ऐ सेड् अभवम् अभवम्
वाट् इस् अभवम्?
Abhavam is for aham actually, but it's okay, so we can just use abhavat here. Abhavam is for aham abhavam, like that.
Okay, aham. But otherwise for now we are using
abhavat.
Dhanyavad.
Astu. So atra we have सः गच्छति, सा गच्छति, बट् अहं गच्छामि इति वर्तमानकाले भवति. एवमेव भविष्यत्काले अपि अहं गमिष्यामि, सः गमिष्यति, करिष्यति. भूतकाले त्यक्तवान्, त्यक्तवती, कृतवान् इति बहुविधरूपाणि सन्ति. भविष्यत्काले त्रीणि रूपाणि एव. इष्यति, श्रोष्यति, अण्ड् देन् वि हाव् इष्यति, स्यति. इष्यति, स्यति अण्ड् इक्ष्यति. सो दर् आर् त्रीणि रूपाणि एव. पास्यति, दास्यति, न्यास्यति, उत्थास्यति. अनन्तरं श्रोष्यति, लेखिष्यति, मेलिष्यति, ग्रहीष्यति. अनन्तरं प्रक्ष्यति, द्रक्ष्यति, शक्ष्यति, उपवेक्ष्यति. सो हौ डु वि नो विच् इस् विच्? ओन्लि बै एक्स्पीरियन्स्. अस्तु, अत्र पश्यामः. सः पठति, सः पठितवान्, सः पठिष्यति. सा पठति, सा पठितवती, परन्तु सा पठिष्यति एव. अहं पठामि, अहं पठितवती, अहं पठिष्यति. अत्र स्त्रीलिङ्गे पुल्लिङ्गे समानरूपमेव. अतः दिस् इस् अ प्रापर् लकार. अवगतं वा?
अवगतम्.
अस्तु, धन्यवादः. ओके, सो सागरी भगिनी?
आं भगिनि.
अस्तु, किं कुर्मः अभ्यासार्थं? सः क्रीडति, अहं क्रीडामि. सः क्रीडिष्यति, अहं क्रीडिष्यामि इति वदतु भगिनि.
अहं क्रीडामि. व्हाट्स् द सेकेण्ड् वन्?
सा क्रीडति,
सा क्रीडति,
सा क्रीडिष्यति,
सा क्रीडिष्यति,
अहं क्रीडिष्यामि,
अहं क्रीडिष्यामि.
सो यु से दट् पेटर्न् फार् लिखति. सा लिखति, अहं
लिखामि,
लिखामि.
सा लेखिष्यति. अहं द लास्ट् वन् ऐ डोण्ट् नो भगिनि.
लेखिष् अण्ड् देन् यामि,
लेखिष्यामि.
सेम् लैक् लिखति, लिखामि, लेखिष्यति, लेखिष्यामि. सेम् लैक् वर्तमानकाल अवगतं वा भगिनि गोपिका भगिनि खादति
बालिका खादति अहं खादामि बालिका खादिष्यति अहं खादिष्यामि
उत्तमम् अहं खादिष्यामि अस्तु शारदा भगिनी मेलिष्यति
सा मिलति मिलामि सा मेलिष्यति अहं मेलिष्यामि
उत्तमं महेश महोदय इदानीं वर्तमानकालं मास्तु केवलं भविष्यत्कालरूपमेव
सः हसिष्यति अहं हसिष्यामि
उत्तमं बीना भगिनी
सः निन्दिष्यति अहं निन्दिष्यामि
उत्तमं भगिनि धन्यवादः उमारेड्डि भगिनि
सा धाविष्यति अहं धाविष्यामि
उत्तमं भगिनि रम्या भगिनी अनन्तरम् उमा कृष्णन् भगिनी
बालकः पतिष्यति अहं पतिष्यामि
उत्तमम् उमाकृष्णन् भगिनी अनन्तरम् उषा भगिनी
सः नेष्यति अहं नेष्यामि
नेष्यामि उत्तमं नेष्यामि अस्तु उषा भगिनी
सा आनेष्यति अहम् आनेष्यामि
उत्तमम् सविता भगिनी अनन्तरं परमेश्वर महोदय
सीता सीता वदिष्यति अहं वदिष्यामि
उत्तमम् परमेश्वर महोदय इदानीं वयं बहुवचनं वदामः
सा स्मरिष्यति स्मरिष्यति अहं स्मरिष्यामि सा स्मरिष्यति अहं स्मरिष्यामि
म्यूट् मध्ये गच्छतु श्रीनिवासमहोदय इदानीं बहुवचनं प्रति गच्छामः
ते गमिष्यन्ति
वयं
गमिष्यामः
उत्तमं वयं गमिष्यामः अन्य कोऽपि अस्ति वा यः
भगिनि ज्योति
ज्योति ज्योति भगिनि अन्य एनिबडि एल्स्
अहं सौन्दरं भगिनि
नारायणमूर्ति सौन्दरं एनिबडि एल्स्
ज्योति
ज्योति
मालति
अपि वा मालति स्वागतं सर्वेषां स्वागतम् अस्तु ज्योति भगिनि गमिष्यति अभवत् आगमिष्यति बहुवचनं
ताः आगमिष्यति वयं आगमिष्यामि
नो भगिनि दट् इस् एकवचनं खलु
ओके ताः आगमिष्यतः
नो हौ विल् यु से ताः आगच्छति
ताः ते तां
न सपोज् वि से बालिकाः
बालिकाः आगच्छतु
आगच्छतु विषये बालिका आगच्छति बालिकाः
आगच्छन्ति बालिका आगच्छन्ति
बालिकाः
आगच्छन्ति
बालिकाः
आगच्छन्ति
ओके सो अत्र बालिकाः
बालिकाः आगमिष्यन्ति
उत्तमम् आगमिष्यन्ति अत्र अहम् आगच्छामि वयं
वयम् आगच्छन् अहम् आगच्छामि वयम् आगच्छामः
सो अत्र अहम् आगमिष्यामि वयम्
आगमिष्यामः
वयम् आगमिष्यामः उत्तमम् आगमिष्यन्ति आगमिष्यामः
आगमिष्यामः
उत्तमं भगिनि धन्यवादः नारायणमूर्ति महोदय सो सी हौ इट् चेञ्जस् हियर् इच्छति बिकम् एषिष्यति
अहम् एषिष्यामः
अहम् एषिष्यामः अहम् इस् एकवचनं खलु अहम्
एषिष्यामि
उत्तमम् एषिष्यामि
वयम् एषिष्यामः
उत्तमं सः
सा इच्छति
सा एषिष्यति
सा एषिष्यति
ताः
ताः एषिष्यन्तः
एषिष्यन्ति एव दस् नाट् एषिष्यन्ति एषिष्यन्ति एषिष्यामि एषिष्यामः उत्तमं सौन्दरं भगिनि सो भगिनि जस्ट् लैक् हौ वि सेड् एकवचनं बहुवचनं प्रथमपुरुष मध्यम उत्तमपुरुष एषिष्यति एषिष्यन्ति एषिष्यामि एषिष्यामः अत्र उत्थास्यति
बालिका उत्थास्यति अहम् उत्थास्यामि
बहुवचन
बालिकाः बालिकाः उत्थास्यन्ति वयम् उत्थास्यामः
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 उत्तमं धन्यवादः भगिनि मालती भगिनि पास्यति एकवचनं बहुवचनं भगिनी अस्ति वा मालती भगिनी
बालकः पास्यति बालः पास्यति अहं पास्यामि
उत्तमं बहुवचनं
बालकाः पास्यन्ति
उत्तमं बालकाः पास्यन्ति
वयं पास्यामः
उत्तमं वयं पास्यामः अस्तु so up to here everything was shyati 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 ishyati vadishyati smarishyati so here it started to change uttasyati pasyati now it is all kshati kshati astu सागरि भगिनि अनन्तरं गोपिका अनन्तरं शारदा भगिनि अस्तु
आं भगिनि
त्यक्षति बहुवचनं
सः
इदानीं भगिनि वी विल् गो टु भवान्
भवान् त्यक्षति भवन्तः त्यक्ष्यन्ति
भवन्तः त्यक्ष्यन्ति उत्तमं गोपिका भगिनी द्रक्ष्यति भवती वदतु भवती
अहम् ऐ हेव् रिटन् अनदर् इस् इट् ओके
अस्तु भगिनि
प्रेषयामि वदामि वा
प्रेषयामि इस् नाट् हियर् अस्तु वदतु अस्ति
अहम् ऐ विल् स्टार्ट् फ्रम् अहम् अहं श्वः मम नृत्य अङ्गिकयूदृशे अङ्गिकेयदृश्यलेखं प्रेषयिष्यामि
अत्र रूपं किं वदतु भगिनि
प्रेषयिष्यति
सो यु विल् से अहं
ओ अहं श्वः मम नृत्य अङ्गीयदृश्यलेखं प्रेषयिष्यति प्रेषयिष्यामि
उत्तमं प्रेषयिष्यामि उत्तमं भगिनि प्रेषयिष्यामि
भवान् श्वः गीतं नृत्यं च अङ्गीयदृश्यलेखः लेखं what will be the imperative mode bagini
I'm looking for it so I can show you so it is drakshyati kalo it will become drakshyatu
drakshyatu
drakshyatu drakshyatu means you will see but we just say pashyatu eva
pashyatu
pashyatu okay
bhavantah श्वः अङ्गीयदृश्यलेखं द्रक्ष्यन्तु
द्रक्ष्यन्तु नो फार् इम्परेटिव् वि विल् जस्ट् यूस् पश्यतु पश्यन्तु
पश्यन्तु
पश्यतु पश्यन्तु सो सो दिस् वन् इस् विल् डू इट् सो यु केनाट् से यु विल् सी लैक् द्रक्ष्यतु पश्यतु उत्तमं भगिनि
धन्यवादः
समीचीनं
फोर् द फ्यूचर् टेन्स् आल्सो वि विल् जस्ट् से पश्यतु
पश्यतु अस्तु शारदा भगिनी भवती वदतु भवती
भवती त्यक्ष्यति
त्यक्ष्यति त्यक्ष्यति
त्यक्ष्यति भवत्यः त्यक्ष्यत्यः त्यक्ष्यत्यः
त्यक्ष्यन्ति त्यक्ष्यन्ति एव
त्यक्ष्यन्ति
सेम् लैक् हियर् खलु भवती त्यजति भवत्यः
त्यजन्ति
त्यजन्ति त्यजन्ति ओके सो दिस् विल् बी द सेम् लैक् लैक् द भवती त्यक्ष्यति भवत्यः त्यक्ष्यन्ति हियर् इट् विल् चेञ्ज् भवत्यः त्यक्तवत्यः बट् हियर् इट् विल् नाट् चेञ्ज् त्यक्ष्यन्ति अस्तु महेश् महोदय
आं भगिनि
एकवचनं बहुवचनं किमपि अहं वा सः वा
अहं द्रक्ष्यामि वयं द्रक्ष्यामः
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 उत्तमम् उत्तमं महोदय धन्यवादः बीना भगिनि उपवेक्ष्यति एकवचनं बहुवचनं किमपि
अहम् उपवेक्ष्यामि वयम् उपवेक्ष्यामः
उत्तमं भगिनि धन्यवादः उमारेड्डि भगिनी अनन्तरं रम्या भगिनी दास्यति
अहं
दास्यामि
दास् भगिनि दास् सकार स
दास्यामि अहं दास्यामि वयं दास्यामः
दास्यामः उत्तमं
दास्यामः
excuse me this is dasyami means serving or what
to give so I can say tomorrow I'll give you a book shaha aham pustakam dasyami
okay thank you
astu mahade ramya bagini anantaram uma krishnan bagini praksh
अहं प्रक्ष्यामि
वयं प्रक्ष्यामः
उत्तमं भगिनि उमाकृष्णन् भगिनी
आं भगिनि अहं क्रेष्यामि वयं क्रेष्यामः
उत्तमं उषा भगिनी अनन्तरं सविता भगिनी
अहं ज्ञास्यामि वयं ज्ञास्यामः
वयं न्यास्यामः उत्तमं सविता भगिनी
यस् भगिनि अहं निद्रामि
वर्तमानकाल अस्तु
वयं निद्रामः
भविष्यत्काले
निद्रिष्यामि
निद्रास्यामि अहं निद्रास्यामि
वयं निद्रास्यामः
वयं निद्रास्यामः उत्तमं सविता भगिनी अस्तु अस्तु परमेश्वर महोदय
अहं करिष्यामि वयं करिष्यामः
उत्तमं महोदय श्रीनिवास महोदय
भवान् स्वीकरिष्यति भवन्तः स्वीकरिष्यन्ति
उत्तम ज्योति भगिनि
अहं श्रोष्यामि वयं श्रोष्यामः
उत्तमं अस्तु नारायणमूर्तिमहोदय ग्रहीष्यति
अहं ग्रहीष्यामः
अहं ग्रहीष् पुनः वदतु महोदय
अहं ग्रहीष्यामः
अहम् इत्युक्ते एकवचनं खलु
सारि अहं ग्रहीष्यामि वयं ग्रहीष्यामः
उत्तमं महोदय सौन्दरं भगिनी
अहं रोदिष्यामि वयं रोदिष्यामः
उत्तमम् अस्तु मालती भगिनी
अहं शक्ष्यामि वाट् इस् शक्ष्यामि मीनिङ्ग्
टु बि एबल् टु डू समथिङ्ग् लैक्
शक्ष्यामि
शक्नोति शक्ष्यामि अहं शक्ष्यामि
वयं शक्ष्यामः
उत्तमं भगिनि अस्तु सो अनन्तरं सागरी भगिनि पूजयिष्यति
भवती पूजयिष्यति भवत्यः पूजयिष्यन्ति
उत्तमं अस्तु गोपिका भगिनी प्रेषयिष्यति
I said it, bhagini.
I know. Shwah bhavati prishayishyati. Astu.
Shall I find the second? Next
no.
One?
Prakshalayishyati.
Artham kripaya varatvayin.
Prakshalayishyati is to take to clean.
Clean, okay. Aham. Shwah mamagriham. प्रक्षालयिष्यामि
उत्तमं
वयं अस्माकं गृहं प्रक्षालयिष्यामः.
उत्तमं. सो अत्र इफ् यु नोटिस् यत्र पूजयति प्रेषयति इति अस्ति, अत्रापि इष्यति आगच्छति. पूजयिष्यति प्रेषयति प्रेषयिष्यति प्रक्षालयति प्रक्षालयिष्यति स्थापयति स्थापयिष्यति. अस्तु शारदा भगिनी, स्थापयिष्यति.
अहं स्थापयिष्यामि.
उत्तमं.
वयं स्थापयिष्यामः.
उत्तमं भगिनि. अस्तु महेश महोदय, सूचयिष्यति.
सः सूचयिष्यति. ते सूचयिष्यन्ति.
उत्तमम्. अस्तु बीना भगिनी, तर्जयिष्यति.
भवान् तर्जयिष्यति. भवन्तः तर्जयिष्यन्ति.
उत्तमं भगिनि. आह्वास्यति. उमा रेड्डि भगिनि.
आह्वास्यति. भवान् आह्वयिष्यति.
आह्वास्यति.
आह्वास्यति. भवन्तः आह्वयिष्यन्ति.
सो अत्र इष् नास्ति. इष् नास्ति. स् एव. अस्तु अस्तु, वयम् अभ्यासपुस्तकं प्रति गच्छामः. सो यु गेटिङ्ग् द हेङ्ग् आफ़् इट् खलु. ओके. अत्र अत्र सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति. सः चिकित्सालयं गमिष्यति. द्वितीया विभक्ति. विद्यालयं चिकित्सालयं. श्वः इति अव्ययम्. तत्र वैद्यं द्रक्ष्यति. कुत्र?
चिकित्सालये.
चिकित्सालये. उत्तमं. चिकित्सालये सप्तमी विभक्ति. प्रश्नः अस्ति चेत् चिकित्सालये सप्तमी विभक्ति. सो अत्र सः कुत्र गमिष्यति?
सुब्रह्मण्यम्.
नो न, सः
विद्यालय.
विद्यालयं. चिकित्सालयं गमिष्यति. कुत्र कुत्र गमिष्यति? चिकित्सालयं गमिष्यति. ओके, दिस् इस् अ वेरि इम्पार्टेण्ट् पायिण्ट् अण्ड् पीपल् मेक् दोष वित् दिस् आल् द टैम्. कुत्र गमिष्यति? चिकित्सालयं गमिष्यति. कुत्र वैद्यं द्रक्ष्यति? चिकित्सालये. उत्तमम्. तेन सह, वि विल् लर्न् दिस् सून्. तेन सह मीन्स् वित् हिम्. तेन सह सम्भाषणं करिष्यति. ओके, वित् होम्? केन सह? वैद्येन सह सम्भाषणं करिष्यति. स्वस्य अनारोग्यं निवेदयिष्यति. निवेदयिष्यति, वदति, कथयति, सेम् समानरूपं. वदिष्यति अनारोग्यम्. अनारोग्यम् इत्युक्ते आरोग्यम् अनारोग्यम्. आरोग्यम् अनारोग्यम्. इल् हेल्त्. स्वस्य, स्वस्य मीन्स्
हिस् सुब्रह्मण्यस्य.
हिस् ओन्. स्वस्य अनारोग्यं निवेदयति. So, if we are talking, we can also say, tasya anarogyam. But he is talking about himself. So swasya anarogyam nivedayishyati saha shvaha na kridishyati na kridishyati grihe upavishya. This we will also learn later. Upavishya means sitting at home. He'll be sitting after sitting at home, like that, while sitting at home, that kind of usage. Grihe upavishya patam patishyati. Okay. So here the exercise is, what will you do? Shvaha kim kim karishyati? Ekam ekam vakyam vadati va? Eka vakyam atava vakya dvayam. Shvaha bhavati kim karishyati? Anya kim karishyati? Like, I'll do this, somebody else do this. Udaharanartham, aham vadami, aham shvaha kadishyami, mama putri patishyati. Astu, who wants to go, or we'll go in order?
Yeah.
We'll go in order. Astu. Umareddy. Astu. Ramya Bhagini. Shwaha bhavati kim karoti, anya kim karoti.
अहं श्वः पचिष्यामि. मम पुत्री श्वः पठिष्यति.
उत्तम. अस्तु. उमा कृष्णन् भगिनि.
अहं श्वः क्रीडिष्यामि. मम पुत्रः एव
क्रीडिष्यति. मम पुत्रः अपि क्रीडिष्यति. अपि क्रीडिष्यति. उत्तमम्. उषा भगिनि.
अहं किं भवति रैट् विरामि विरामि
नो यु केन् से एनिथिङ्ग् भगिनि
ओके
युवर् चाय्स् I'll go like this and then I'll stop somewhere, you say.
Aham shvaha avishyami.
Aneshyati va? Okay.
Dhavishyami.
Aneshyami.
Dhavati.
Oh, dhavishyami. Dhavishyati. Uttama.
Mama mitram api dhavishyavati.
धाविष्यति.
धाविष्यति. ओके.
धाविष्यति. धाविष्यामि. ओके. कैन यू मेक इट लिटिल स्मॉलर बिकॉज़ आई कांट सी द राइट हैंड साइड.
राइट हैंड साइड आवश्यकम
नास्ति. ओके ओके.
व्हाट वाज इट फॉर भवति दो?
भविष्यति.
वेल, हाउ वुड आई यूज इट इन अ सेंटेंस? आई एम अ लिटिल कंफ्यूज्ड ओवर देयर.
अस्तु.
इस् विल् बि रैट् विल् बि टुमारो.
आम् आम्.
श्वः
अधिकं शैत्यं भविष्यति. इट्स् गोण्ट् बि कोल्ड् टुमारो.
ओ, शैत्यम् इस् कोल्ड्.
शैत्यं भविष्यति. अधिकम् उष्णं भविष्यति.
भविष्यति. ओके. एण्ड् देन् भविष्यन्ति किल रैट्.
भविष्यन्ति.
So what would I use for that sentence? Bhavishyati. I can think.
Shvaha adhika janaha karyakrame bhavishyanti.
Karyakrame means in the program?
Program.
Okay.
Bahuni karyakramaha bhavishyanti. There are going to be lots of programs tomorrow. Yeah.
Okay. Or many people in the program.
Bahu janaha bhavishyanti tatra.
Okay. Thank you.
Astu. Savita Bhagini, Parameshwar Mahodaya. Parameshwar.
Which one?
Anything, Mahodaya. you want something hard, you can try.
No, no, I want something light. If hasati.
Hasati. Hasati va? But no, anyway, hasishyati.
Can I go after some time? Because I just lost the track.
Okay. अस्तु श्रीनिवासमहोदय
अहं श्वः कानिष्यामि
ओके अस्तु
अमावास्यदिनाङ्के ग्रहणं भविष्यति
उत्तमम् उत्तमम्
हौ डु यु से दैट इज़ सेड आने वाले दैट इज़ गोइंग व्हाट इज़ द वर्ड फॉर इट
आगामि
आगामि अमावास्य दिनामे ग्रहणं भविष्यति
दिनाङ्के दिनाङ्के उत्तम ज्योति भगिनी
यस् भगिनि अहं श्वः पूजा करोमि करिष्यामि मम भर्ता अपि श्वः पूजां
करिष्यामि उत्तमं करिष्यामि उत्तमं भगिनि नारायणमूर्तिमहोदय
अहं पाठशालां गच्छामि गमिष्यामि मम पुत्रः क्रीडिष्यन्त
मम पुत्रः क्रीडिष्यति
मम पुत्रः क्रीडिष्यति
उत्तमं सौन्दर्यं भगिनि
अहं श्वः लक्ष्मीं पूजयिष्यामि मम पुत्राः
पुत्राः किं करिष्यन्ति
तस्य कार्य आफीस वर्क आई डोंट नो हाउ टू टेल तस्य कार्याणि कार्यं करिष्यन्ति
कार्यालय कार्यं कार्यालय कार्याणि करिष्यन्ति
कार्यालय कार्यं करिष्यन्ति
करिष्यन्ति उत्तमं मालति भगिनि
अहं श्वः फलं खादामि खादिष्यामि बिकास् इट् इस् ओके श्वः
श्वः
अहं श्वः फलं खादिष्यामि देन् वाट् आर् वी सेयिङ्ग् द नेक्स्ट् वन् ऐ डिण्ट्
अण्डर्स्टाण्ड् वन् इस् अहं वन् इस् सम्बडि एल्स्
मम मम पुत्रं
पुत्रः
मम पुत्रः श्वः उद्यानवने क्रीडिष्यति
पुत्रः क्रीडिष्यति अस्तु वयं किं कुर्मः एतत् एतां कथाम् अस्ति खलु भविष्यत्कालरूपं पठामः भविष्यत्काल रूपं परिवर्तनं कुर्मः
भगिनि सागरी अहं श्वः आपणं गमिष्यामि मम पुत्रः श्वः पाठशालां गमिष्यति
गमिष्यति उत्तमं
राधिका भगिनि
श्वः मीन्स् टुमारो रेपु
अहं वदामि वा भगिनि?
वदतु भगिनि.
अहं श्वः भागवतं पठिष्यामि.
आम् उत्तमं.
मम पितरौ श्वः भागवतं पठिष्यतः.
For two people, we say taha, patishyatah.
Patishyatah.
No, no. If he is going to teach, then how will it come?
Patayishyatah.
Then that will make sense, right?
Patayishyatah.
Aham patishyami. And Pitaraha, he is teaching.
Teaching is patayishyatah. Patayishyatah. Patati patayati.
Patayishyati
then, so why should you tahay then? Patayishyati. No, if it is one means the, she said pitarau. Pitarau means two people. Pitaraha, pitarau, pitaraha.
Pitarau, okay. Pita patishyati.
Patishyati,
Mother and father.
वयं
श्वः महोदयायाः गृहपाठं करिष्यामः.
अस्तु उत्तमम्. अस्तु शारदा भगिनी वदति वा?
आं भगिनि. श्वः अहम् अस्मान् वस्त्राणि प्रक्षालयिष्यामि.
अहं प्रक्षालयिष्यामि. उत्तमं.
मम प्रेतिवेशिनी अपि तस्याः वस्त्राणि प्रक्षालयिष्यति.
उत्तमं. प्रतिवेशिनी. उत्तमं. महेश महोदय.
आं भगिनि. अहं श्वः श्रोष्यामि. सः परश्वः गृहपाठं करिष्यति.
उत्तमं. श्रोष्यामि, करिष्यति. उत्तमम्. अस्तु अनन्तरं बीना भगिनी.
अहं जलं पास्यामि.
उत्तमं.
मम पुत्री फलरसं पास्यति.
उत्तमं. पास्यति, पास्यामि, पास्यति. उत्तमं भगिनि. उमारेड्डी भगिनि.
अहं श्वः भगवद्गीता श्रोष्यति.
भगवद्गीताम् अहं खलु.
अहं श्रोष्यति.
अहं कथं श्रोष्यति?
अहं भगवद्गीता कथं श्रोष्यति?
श्रोष्यामि खलु. अहं
भगवद्गीता श्रोष्यामि.
गीतां श्रोष्यामि.
मम बालिका, मम अम्बा. अम्बा श्वः भगवद्गीता ज्ञास्यति. मम अम्बा भगवद्गीता ज्ञास्यति.
भगवद्गीतां गीताम्
ओके.
भगवद्गीतां ज्ञास्यति. उत्तमम्. अस्तु सो अहम् एतत् प्रेषितवती खलु पूर्वं.
ओके पूर्वम्.
इदानीं भूतकाले वयं पठितवन्तः पूर्वमेव खलु, वर्षे, गतवर्षे, गतमासे, गतमासे अहं संस्कृतं पठितवती, आगामिमासे अहं संस्कृतं पठिष्यामि, आगामिमासे, श्वः, परश्वः, प्रपरश्वः, अभ्यासार्थं कुर्वन्तु, अभ्यासार्थं फार् द सेक् आफ् टु गेट् आल् द डिफ़्रेण्ट् फार्म्स् इन् इन् अवर् हेड् यु डु दिस्. अनन्तरम् एतां कथाम् अपि भविष्यत्कालरूपं. अस्तु, इदानीमपि समयः अस्ति, कुर्मः वा? अस्तु, आमाम् अस्तु. रम्या भगिनी, कश्चित् बालकः भविष्यति, तस्य नाम सुधीरः. एकदा सुधीरः नगरं
गमिष्यति.
शिरस्त्राणि
क्रीणिष्यति.
क्रेष्यति. विक्रयणार्थं
ग्रामं गमिष्यति.
गमिष्यति. अस्तु, उमाकृष्णन् भगिनी,
वाट् इस् द फ्यूचर् फार् अस्ति? ऐ डिण्ट् क्वैट् क्याच् दट्.
भविष्यति.
भविष्यति. धन्यवादः.
हा, अस्तु भगिनि.
मार्गे भविष्यति.
मार्गे अरण्यं भविष्यति. सुधीरः
शान्तः. वाट् इस् फर् भवति?
आल्सो भविष्यति एव.
भविष्यति.
ओके, इट् इस् भविष्यति फार् फार् बोत् अस्ति एण्ड् भवति.
धन्यवादः भगिनि.
सुधीरः शान्तः भविष्यति.
वृक्षस्य अध्यः उपवेक्ष्यति. शिरस्त्रपेटिका.
उषा भगिनि, शिरस्त्रपेटिकां.
शिरस्त्रपेटिकां पार्श्वे
स्थापयिष्यति. उत्तमं.
तत्र एव निद्रां करिष्यति.
करिष्यति. उत्तमम्. अस्तु, सविता भगिनी.
यस् भगिनि, यस् भगिनि.
तत्र
केचन वानराः वाट् इस् सन्ति भविष्यन्ति.
भविष्यन्ति.
तत्र केचन वानराः भविष्यन्ति. एकवानरः सुधीरस्य समीपम् आगमिष्यन्ति.
आगमिष्यन्ति. उत्तमम्. अस्तु, परमेश्वर महोदय, सः
पेटिका
पश्यति.
आगमिष्यति. एकः वानरः एव खलु आगमिष्यति.
सः पेटिकां पश्यति.
द्रक्ष्यति.
ओ सोरि, द्रक्ष्यति.
उद्घाटयन्ति. उद्घाटयिष्यति.
सोरि, उद्घाटयिष्यति. एकं शिरस्त्रं कृष्णा.
न, अत्र पश्यतु महोदय.
गृहीष्यति.
ग्रहीष्यति.
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 शिरस्त्रं
ग्रहीष्यति. अस्तु महोदय, अग्रे गच्छामः. श्रीनिवास महोदय, शिरसि.
शिरसि
धारयिष्यति.
पुनः वृक्षस्य उपरि गमिष्यति उपविश्यति
उपवेक्ष्यति उपवेक्ष्यति ज्योति भगिनी
अन्ये अन्ये अपि वानराः एतत् उपविश्यति पश्यन्ति रैट् अन्ये अपि वानराः एतत् पश्यति द्रक्ष्यति पश्यति दृक्ष्यति
द्रक्ष्यन्ति द्रक्ष्यति
अन्ये अपि वानराः एतत् द्रक्ष्यन्ति ते अपि शिरस्त्रं इच्छन्ति एषिष्यन्ति इच्छति बिकम् एषिष्यति एषिष्यन्ति एषिष्यन्ति एषिष्यति
एषिष्यन्ति ओके
यन्ति ओन्लि ओके एषिष्यन्ति अतः
एकनिमिषं भगिनि विल् गो द नेक्स्ट् पर्सन् मालति भगिनि मालति भगिनि अतः
आगमिष्यन्ति शिरस्त्राणि धारयिष्यति उपविश्यन्ति
उपवेक्ष्यन्ति
उपवेक्ष्यन्ति
अस्तु सागरी भगिनी वि आर् गोयिङ्ग् टु लुक् अट् ओन्ली द क्रियापदानि ओके भवति
भवति भविष्यति
भविष्यति अस्तु पश्यति द्रक्ष्यति
द्रक्ष्यति
गोपिका भगिनी नास्ति
न भविष्यति
भविष्यति पश्यति
द्रक्ष्यति
द्रक्ष्यति शारदा भगिनी सन्ति
न भविष्यन्ति
भविष्यन्ति दर्शयति
दर्शयन्ति
दर्शयिष्यति दर्शयिष्यति अत्र दर्शयिष्यन्ति अत्र अस्तु महेश महोदय क्षिपति
क्षिपति
so it is kshepsyati
kshepsyati
kshepsyati kshepsyanti so agrima karotu
karotu
karoti
kurvanti
karish karish
kshepsyati karishyati
karishyati janati
janishyati
nyasyati
jnani nyasyati
it's very different astu bina bagini kshipati
क्षेप्यन्ति
क्षेप्स्यति
क्षेप्यति क्षेप्यन्ति
क्षेप्स्यन्ति उमारेड्डि भगिनी सङ्गृह्णाति सङ्ग्रहीष्यति
सङ्ग्रहीष्यति
ग्रहीष्यति अत्र अस्ति ग्रहीष्यति सङ्ग्रहीष्यति
सङ्ग्रहीष्यति
सङ्ग्रहीष्यति अस्तु गच्छति
गमिष्यति
गमिष्यति उत्तम गमिष्यति उत्तम सो भविष्यत्कालरूपमपि अपि तथा एव अभ्यासेन वयं स्वयं सम्यक् ज्ञातुं शक्नुमः आगामिवर्गे वयं सर्वे रूपाणि सर्वाणि रूपाणि वक्तुं शक्ष्यामः अस्तु, अत्र विशेषरूपाणि अस्ति, पिबति, पास्यति, ददाति, दास्यति, जानाति, न्यास्यति, न्यास्यति, शृणोति, श्रोष्यति, लिखति, लेखिष्यति, मिलति, मेलिष्यति, पृच्छति, प्रक्ष्यति, त्यजति, त्यक्ष्यति, शक्नोति, शक्ष्यति, उपविशति, उपवेक्ष्यति. सो एतत् सर्वं क्षति, क्षति, क्षकार अस्ति अत्र. उत्तिष्ठति, उत्तास्यति, पास्यति, दास्यति, न्यास्यति, उत्तास्यति. ग्रहीष्यति, गृह्णाति, ग्रहीष्यति. पुनः पुनः पठामि एतत् सर्वम्. ओके, प्रश्नाः सन्ति वा?
आं भगिनि, एकः प्रश्नमस्ति. एकः प्रश्नमस्ति.
प्रश्नः
प्रश्नः इन् द स्टोरि दट् स्टोल्ड् इन् दट् वन् वर्ड् वास् देयर् सर्वे. ऐ हेड् आस्क् यु दट् क्वश्चन् सर्वे पुल्लिङ्ग पदम् अपि च स्त्रीलिङ्ग पदं यु टोल्ड् इट् इस् सर्वाः. बट् सर्वे ऐ कुड् नाट् ऐ लुक् अट् विभक्तिरूप सर्वे इस् सप्तमी विभक्तिरूप लैक् रामवत्
न न न न न इस् लैक् फार् एक्साम्पल् वि हेव् कः कः कौ के हलो
कः कौके
कः कौके सः तौ ते
ते
सर्वः सर्वौ सर्वे सो इट् इस् डेफिनेट्लि नाट् सप्तमी विभक्ति.
ओके 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 ओके
भगिनि, स्त्रीलिङ्गपदं वाट् इस् स्त्रीलिङ्गपदं?
सो फस्ट् स्त्रीलिङ्गपदं सा, ते,
ता,
का, के, काः, सर्वा,
सर्वा,
सर्वे,
सर्वाः,
सर्वाः.
ओके भगिनि, धन्यवादः.
धन्यवादः. पेटर्न्
सर्वाः
सर्वाः. अस्तु, प्रश्नाः न सन्ति चेत् विरमामः. अस्तु, शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः,
सर्वे सन्तु निरामयाः,
सर्वे भद्राणि
पश्यन्तु,
कश्चित्
दुःखं भवेत्.
ॐ
शान्ति
शान्ति
शान्ति.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः.